एसा रेडियो नेपाल सम्प्रति समाचार श्रीयन्ताम् प्रवाचक ध्रुव भट्टराई प्रधानमन्त्री शेरबहादुर देउवा निगदति आगामिनो मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत्समानं प्रतिनिधि सभाय प्रदेश सभानां च सदस्यानां निर्वाचनं राष्ट्रस्य भविष्यं निर्धारयिष्यति। काष्ठमण्डपस्य दशम क्षेत्रीयेण वाम लोकतान्त्रिक गठबन्धनेन ह्य आयोजितां नैर्वाचनिकीं सभां सम्बोधयन् प्रधानमन्त्री देउवा सर्वेषां वर्गक्षेत्राणां योजकस्य संविधानस्य संरक्षणस्य लक्ष्येण गठबन्धनं निर्मितमिति समस्पष्टयत्। प्रधानमन्त्री देउवा वारद्वयं संसद भञ्जनम् अनु आत्मविर्मिलुता इयं संरक्षितीति दृष्टान्तं प्रास्तोत। गठबन्धनस्य केवल शपथ लोकतन्त्रस्य समृद्धिरस्तीति चर्चयन् प्रधानमन्त्री देउवा जनतया प्राप्त अधिकार दुर्बल विस्थापितश्च न भवतीत्युद्देशेन गठबन्धनं निर्मितमिति अभाषत। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत अवदत लोकतान्त्रिक मूल्य मान्यतानां संस्थापन पुरस्सरं राष्ट्रस्य सर्वाङ्गीण विकासाय संविधानस्य रक्षक शक्ति विजय आवश्यको वर्तते। कांग्रेस दलस्य नेता राजेन्द्र केसी अवोचत कृषि पर्यटनस्य ऊर्जस्य क्षेत्राणां विकासेन राष्ट्रं समृद्धं विधातव्यम्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति लोकतन्त्र विरोधी संविधानस्य संकटे निपातनम् अनु संविधानस्य पक्षधरा एकत्र संस्थिताः सन्ति। गोर्खा जनपदस्य सिरान्चोक ग्रामपालिकाय नयाँ साङ्गु स्थाने ह्य आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् अध्यक्ष प्रचण्ड अतर्कयत संविधानस्य रक्षायै वर्तमानम् वाम लोकतान्त्रिकम् गठबन्धनम् निर्मितम् वर्तते। अध्यक्ष प्रचण्ड अब्रवीत परिवर्तनम् संस्थागतीकर्तुम् आर्थिक क्रान्ति आवश्यकी अस्ति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली दलीय व्यवस्थाया लोकतन्त्रस्य प्रजातन्त्रस्य च विरूद्धे षड्यन्त्र स्वरूपेण संचालितस्य स्वतन्त्र अभियानस्य भ्रमं नानुसर्तम् अनुरणध्ये ह्यः सुनसरी जनपरिषद धरानस्थाने आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् अध्यक्ष ओली अगदत् धरान नगरस्य पेयजलस्य समस्याया सबल व्यवस्थापनाय कौशिकी नद्याम् नलिका व्यवस्थापनम् तमुर नद्या जलोन्नयनम् मेलम्ची नद्या इव भूमिगत जलसरण्य निर्माणम् च करिष्यते। नेपाली कांग्रेस दलस्य महामन्त्री विश्व प्रकाश शर्मा वदति चिरकालिक संघर्षेण आनीतस्य संविधानस्य संकटे निपातनस्य अवस्थायम् गठबन्धनेन संविधानम् संरक्षितम् वर्तते। झापा जनपदस्य चन्द्रगढ़ी स्थाने लोकतान्त्रिक वाम गठबन्धनस्य निर्वाचन परिचालन समित्या ह्य आयोजितायम् नैर्वाचनिक सभायम् महामन्त्री शर्मा अगदत् देशे सुशासनम् संस्थाप्य भ्रष्टाचार संनियन्त्रणाय गठबन्धनेन अनुकूल प्रयास विहितोऽस्ति। सभायम् नेपाली कांग्रेस दलस्य पूर्व महामन्त्री कृष्ण प्रसाद सिटोला अब्रवीत राष्ट्रस्य आमूलम् परिवर्तनम् केवलम् नेपाली कांग्रेस दलस्य नेतृत्वे सफलम् सम्भूतम् वर्तते। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया कथयति बहुदलीय व्यवस्थायां दलस्य घोषणापत्रस्य सिद्धान्तस्य निष्ठाया कार्यक्रमाण च आधारेण प्रत्याशीभिमतम् याचनीयम्। गोर्खापत्र संस्थानेन ह्य चितवन जनपदे आयोजिते निर्वाचन समाचार लेखनानुशिक्षण विषयकै कार्यक्रमे असौ अवोचत सांसदानां भूमिका ज्ञानेन विना स्थानीय स्तरे विधातव्यानि कार्याणि करिष्यन्ति इति आश्वासनस्य आधारेण मतदानम् न विधातव्यम्। प्रमुखायुक्त थपलिया अतः परम् मतदान स्थलेषु मतदान केन्द्रेषु च केन्द्रीभूय निर्वाचनमय समाचाराणां संकलन सम्प्रेषणं च विधातुं पत्रकारान् अनुरुणत। काष्ठमण्डप महानगरपालिकया उन्मुक्त रूपेण अग्निज्वालनम् अवकर दहनम् च प्रतिबन्धिते स्तः। उन्मुक्त रूपेण अग्निज्वालनात् अवकर दहनात् च वायु प्रदूषणम् वर्धते जनस्वास्थ्य प्रतिकूल प्रभावस्य सृजति इति हेतु कार्यमिदम् प्रतिबन्धितम् इति महानगरपालिकया ह्य सार्वजनिक सूचना माध्यमेन ज्ञापितम् वर्तते। प्रतिबन्धनम् अनु अवकर दहनस्य अग्निज्वालनस्य च कार्ययो प्राप्तयो सतो अधिनियमस्य अनुसारेण दण्डनम् भविष्यति इति महानगरस्य प्रवक्ता नवीन मानन्धरः अवोचत। राष्ट्रपति विद्यादेवी भण्डारी जनगणतन्त्रस्य आइसल्याण्ड देशस्य औपचारिकम् भ्रमणम् प्रपूर्य अद्य स्वदेशम् प्रत्यावर्तमाना वर्तते। महिला राजनीतिज्ञानाम् विश्वव्यापी सञ्जाल कार्यक्रमे सहभागिताय राष्ट्रपति भण्डारी अस्यैव कार्तिकस्य एकविंशे दिवसे आइसल्याण्ड देशम् प्राप्ता आसीत्। जनगणतन्त्रस्य आइसल्याण्ड देशस्य राजधान्यां रेक्याभिक स्थाने आयोजितं कार्यक्रम सम्बोध्य राष्ट्रपतिना भण्डारिण तदवसरे महिला राजनीतिज्ञ ट्रेल ब्लेजर पुरस्कारस्य गृहीता आसीत्। राष्ट्रपति भण्डारिण यः आइसल्याण्ड देशात् प्रस्थाय नर्वे देशस्य राजधान्यां ओस्लो स्थानात् कतार देशस्य राजधानीं दोहा स्थानं सम्भूय च अद्य काष्ठमण्डपं प्रत्यावर्तनस्य कार्यक्रमो वर्तते। प्रतिनिधि सभाया प्रदेश सभानां च आसन्न निर्वाचनस्य सुरक्षावस्थाया विषये प्रधान सेनापति प्रभुराम शर्मा निरीक्षण भ्रमणं विदधानो वर्तते। एतस्मिन् क्रमे प्रधान सेनापति शर्मा ह्य खोटाङ जनपदस्य दिग्तल स्थितस्य गोरखनाथ गणस्य निरीक्षण भ्रमणं विधाय तत्रत्याय वस्तुस्थिति निर्वाचनस्य एकीकृत सुरक्षा योजनाया क्रियान्वयनस्य विषयो अजानात्। स्याङ्जा जनपदस्य वालिङ नगरपालिकाया चतुर्थ सड़क क्षेत्र वर्तिनी कफलेटी स्थाने चित्र व्याघ्रस आक्रमणेन त्रयोजना आहता सन्ति। वालिङ नगरपालिकाया चतुर्थ सड़क क्षेत्रस्य अध्यक्षस्य बोधराज कुम्भरस्य अनुसारेण आहतेषु एतत् वडा क्षेत्रस्य तुलसा पराजुली लक्ष्मी पराजुली च द्वादश वडा क्षेत्रस्य किसान न्यौपाने च सन्ति। आहता त्रयव जना उपचाराय पोखरा स्थितं गण्डकी चिकित्सा शिक्षणालयं प्रेषिता सन्ति। जुम्ला जनपदे पञ्चदिनेभ्य अन्तर सञ्जाल सेवाय दूरभाष सेवायश्च अवरूद्धताय कारणेन स्थानीयवासितः सर्वकारीणां सर्वकारीयतरेषां च कार्यालयानां कार्यसम्पादने समस्या सृष्टास्ति। गत शनिमासस्य अन्तिम सप्ताहस्य विपदा प्रभावितयो दूरभाष सेवाय अन्तर सञ्जाल सेवायश्च सम्भारस्य अनन्तरं सञ्चालन विहितं सदपि भूयो भूय अवरूद्धताय कारणेन समस्या सोढव्यास्तीति नागरिकाणां वेदना वर्तते। पृथ्वी राजमार्गस्य विस्तारस्य क्रम तीव्रं वर्धमानो वर्तते। एतस्मिन् क्रमे अतःपरं 67.4% वृक्षा कर्तिष्यन्ते। इतः पूर्वं मुगलिन पोखरा मार्ग योजनाया मार्गस्य वाम दक्षिण भागे 44% 50.5% च वृक्षा कर्तिता आसन्। आयोजनाय वातावरण विज्ञस्य युवराज ढकालस्य अनुसारेण 90% वृक्षाणां कर्तनं सम्पन्नं वर्तते। भारतस्य सर्वोच्च न्यायालयेन पूर्व प्रधानमन्त्रिण राजीव गान्धी इत्यस्य हत्यायाम् आजीवनं कारावासस्य दण्डं याप्यमानं सर्जनान् मोचयितुम् आदिष्टं वर्तते। न्यायालयेन गान्धी इत्यस्य हत्यायात् दोषिणां चिराय कारावासे निवसनं सदाचारणं च दृष्टिगतं विधाय कारावासनात् मोचनाय आदिष्टम् इति ज्ञापितं वर्तते। तमिलनाडु सर्वकारेणापि तेषाम् आजीवनं कारावासस्य दण्डनं क्षमित्वा मोचनाय परामृष्टम् आसीत्। रूस देशेन युक्रेन देशस्य दक्षिण दिशा खेर्सन नगरात् स्वस्य सर्वे सैनिका प्रत्यावर्तिता सन्तीति ज्ञापितं वर्तते। सेनाया प्रत्यावर्तनम् अनु सम्प्रति खेर्सन नगरे का अपि सैन्य सामग्र्य शस्त्रास्त्राणि च न सन्तीति रूस देशीय रक्षा मन्त्रालयेन ज्ञापितमस्ति। रूस देशस्य रक्षा मन्त्रिणा सर्गेई सोइगु इत्यस्य युक्रेन देशे कार्यरतस्य रूस देशीयस्य सैन्यादेशकस्य सर्गेई सुरोभिकिन इत्यस्य च मध्ये मस्को स्थाने सम्पन्नस्य उपवेश स्य पश्चात् मस्को प्रशासनेन सेना खेर्सन नगरात् प्रत्यावर्तितुम् आदिष्टा अस्ति। आसन्न दशमासेभ्य सञ्चाल्यमाने युक्रेन युद्धे 1,00,000 अधिका रूस देशीय सैनिका मारिता आहताश्च सन्तीति अमेरिका देशीय अधिकारिणा ज्ञापयन्ति। संयुक्त राष्ट्र संघीय महासचिव एन्टोनियो गुटरे सिरिया देशे पश्चातनकचित दिवसेभ्य जायमानं हिंसां प्रति चिन्तां व्यनक्ति। महासचिवेन गुटरे सत्यनेन कचित दिवसेभ्य सिरिया देशस्य विभिन्नेषु भूभागेषु हिंसात्मक प्रहारेण कचित व्यक्तिभ्यो मृता अनेकोषु जना विस्थापिताश्च सन्तीति घटनां प्रति अभिरूचि प्रकटितीति एतदीय प्रवक्त्रा स्टेफन डुजारिक इत्यनेन प्रकाशितं विज्ञप्तौ ज्ञापितमस्ति। महासचिवेन गुटरे सत्यनेन एवंविधम् आक्रमण अवरुद्ध सर्वे पक्षा शान्ति संयमस्य मार्गम् अवलम्बितुम् अनुरुद्धा सन्ति इति समाचारः।